नमस्सर्वेभ्यः अद्य चम्पूरामायणस्य बालकाण्डे द्वात्रिंशः पाठः आगस्ट् मासस्य विंशः दिनाङ्कः मङ्गलात् आरम्भं कुर्मः कोऽपि मङ्गलं चिकीर्षति वेङ्कटेश्वर महोदय
नमस्ते लक्ष्मीं तनोतु नितरानभ्यम् अङ्घ्रिद्वयं निगमशाकिशिखा प्रवालम् ऐरम्बमम्बुरुहदम्बरचौर्यलिग्नम् विघ्नाद्विवेदशिखतारश्वधुरन्धरन्नः
धन्यवादः गतवर्गे गङ्गावतरणकुलकम् अधीतम् पञ्चश्लोकाः येषां समूहान्वयः क्रियते अथ वीचीत यच्छन्न दिगन्तगगनान्तरा शशाङ्कशङ्खसंहिन्नतारामौक्तिकदन्तुरा तरङ्गा कृष्टमार्तण्डतुरङ्गा यासि तारुणा फेनच्छन्नस्वमातङ्गमार्गणव्यग्रवासवा आविश्शाखाशिखोन्नेयनन्दनद्रुमकर्षणा एकोदकनभो मार्गदिङ्मूढदिवसेश्वर आवर्तगर्तसम्भ्रान्तविमानप्लवविप्लवा नीलजीमूतशैवालसुतरेखा हरिस्कटा अवलेपभराक्रान्ता सुरलोकतरङ्गिणी पपातपार्वतीकान्तजराकान्तारगह्वरे पपात सुरलोकतरङ्गिणी पपात गङ्गा पार्वतीकान्तजटा कान्तारगह्वरे कान्तारः महारण्यम् यत्र गन्तुम् अथवा निर्गन्तुम् मार्गः न लभ्यते तादृशम् महारण्यम् कान्तारशब्देन उच्यते सो तादृशः तत्र पार्वतीकान्तस्य जटा एव कान्ताररूपम् यस्य गह्वरे गुहायाम् पतिता गङ्गा बहिरागन्तुम् न शक्ता इत्यर्थः ध्वन्यते किमर्थं सा पपात पपात इति क्रियापदे अपि ध्वनिः अवलेपभराक्रान्ता सा गर्विता तेन कारणेनैव तस्याः पतनमभूत् इत्यपि ध्वन्यते तस्याः वर्णनं कथं गङ्गायाः तरङ्गैः सर्वमपि व्योमव्याप्तं तत्र चन्द्रः एव शङ्खः नक्षत्राणि एव मौक्तिकानि आसन् गङ्गायाः तरङ्गैः सूर्यस्य अश्वाः मार्गभ्रष्टाः तान् नियन्त्रयितुं प्रयतमानः अरुणः अत्यन्तं श्रान्तः अभूत् गङ्गायाः शुभ्रवर्णफेनेन ऐरावतः आच्छन्नः इन्द्रस्य राजमातङ्गः ऐरावतः आच्छन्नः तस्य अन्वेषणे इन्द्रः अपि श्रान्तः तत्र नन्दनवनस्य सर्वेऽपि वृक्षाः गङ्गाप्रवाहेण कृष्टाः प्रवाहेण सह एव गच्छन्ति यत्र केवलं तासां शाखानां शिखाः अग्रभागाः एव दृश्यन्ते एकोदकनभोमार्गदिङ्मूढदिवसेश्वरा तस्य सम्पूर्णः आकाशः यदा जलेन व्याप्तः तदा कुत्र गन्तव्यं कः मम मार्गः का पूर्वादिक् का पश्चिमादिक् इति दिवसेश्वरः सूर्यः अपि दिग्भ्रान्तः आवर्तगर्तसम्भ्रान्तविमान तत्र सिद्धचारणानां विमानानि गङ्गायाः आवर्तेषु सम्भ्रमन्ति पुनश्च विप्लवन्ति नीलजीमूतशैवालकृतरेखा हरित्तटा कृष्णवर्णस्य मेघाः एव शैवालरूपाः तत्र गङ्गानद्याः तीरेषु श्रेणीकृताः दृश्यन्ते इत्येवं गङ्गानद्याः वर्णनं दृष्टम् सा गङ्गा शिवस्य जटासु पतिता अग्रे पश्यामः ये अनुवक्तुमिच्छन्ति पद्मा
अलब्धनिर्गमा शम्भोः
कपर्दानमरापगा
ದೂರ್ವಾಶಿಖಾಲಗ್ನ ತುಷಾರಕಣಿಕೋಪಮಾಂ ಅಲಬ್ಧ ನಿರ್ಗಮ ಶಂಭೋಃ ಕಪರ್ದಾದ್ ಅಮರಾಪದಾ ತದೌ ದೂರ್ವಶಿಖಾಲಗ್ನ ತುಷಾರ ಕಣಿಕ ಉಪಮಾಂ
ಅಲಬ್ಧ ನಿರ್ಗಮ ಶಂಭೋಃ ಕಪರ್ದಾತ್ ಅಮರಾಪಗ ಅಮರ ಆಪಗ ಅಮರಾಪಗ ದಧೌ ದೂರ್ವಾ ಶಿಖಾ ಲಗ್ನ ತುಷಾರ ಕಣಿಕಾ ಉಪಮಾಂ ದಧೌ ಧೃತವತಿ ಕಾ ದಧೌ ಅಮರಾಪಗ ಅಮರಾಣಾಂ ದೇವಾನಾಂ ಆಪಗ ನದಿ ದೇವನದಿ ಗಂಗಾ ಕೀದೃಶಿ ಸಾ ಅಮರಾಪಗ ಅಲಬ್ಧ ನಿರ್ಗಮ ನಿರ್ಗಮ ನಾಮ ಬಹಿರ್ಗಮನ ಮಾರ್ಗ ಸಹ ಅಲಬ್ಧ ಅಪ್ರಾಪ್ತ ಯದಾ ಶಿವಸ್ಯ ಜಟಾಸು ಗಂಗಾ ಪತಿತಾ ತತಃ ಬಹಿಃ ನಿರ್ಗಂತುಂ ಸಾ ಮಾರ್ಗಮೇವ ನ ಪ್ರಾಪ್ತವತಿ ಅತಃ ಅಲಬ್ಧ ನಿರ್ಗಮ ಕಸ್ಮಾತ್ ಅಲಬ್ಧ ನಿರ್ಗಮ ಕಪರ್ದಾತ್ ಜಟಾಜೂಟಾತ್ ಕಸ್ಯ ಕಪರ್ದಾತ್ ಶಂಭೋ ಪರಮೇಶ್ವರಸ್ಯ ಜಟಾಜೂಟಾತ್ ಬಹಿರ್ಗಮನ ಮಾರ್ಗಂ ಅಪ್ರಾಪ್ಯ ಅಮರಾಪಗ ಸಾ ದೇವನದಿ ಗಂಗಾ ದಧೌ ಕಾಂ ದಧೌ ಉಪಮಾಂ ಉಪಮಾ ಸಾದೃಶ್ಯಂ ದಧೌ ಕಸ್ಯ ಸಾದೃಶ್ಯಂ ದೂರ್ವಾ ಶಿಖಾ ಲಗ್ನ ತುಷಾರ ಕಣಿಕೋಪಮಾಂ ದೂರ್ವಾ ಶಿಖಾಯಾಂ ದೂರ್ವಾಯಾಹ ಶಿಖ ದೂರ್ವಾ ಗ್ರಾಸ್ ದ ದೂರ್ವಾ ಗ್ರಾಸ್ ಸೊ ದೂರ್ವಾಯಾಹ ಶಿಖಾಯಾಂ ಅಗ್ರಭಾಗೆ ಲಗ್ನ ಸಂಸಕ್ತ ಕಾ ಸಂಸಕ್ತ ತುಷಾರ ಕಣಿಕಾ ತುಷಾರ ತುಹಿದಂ ಹಿಮಂ ಇತಿ ಅಮರಃ ಹಿಮಂ ಹಿಮಸ್ಯ ಕಣಿಕಾ ನಾಮ ಬಿಂದು ಸಾಮಾನ್ಯತಃ ವಿಶಿಷ್ಯ ಪ್ರಾತಃ ಕಾಲೇ ಯದಿ ಶೀತಕಾಲೇ ಪ್ರಾತಃ ಕಾಲೇ ಯದಾ ಪಶ್ಯಾಮಃ ಬಹಿಃ ಗತ್ವಾ ತತ್ರ ಯದಿ ತೃಣಾನಿ ರೋಹಂತಿ ತತ್ರ ತೃಣಸ್ಯ ಅಗ್ರಭಾಗೆ ಲಘು ಲಘು ಹಿಮಬಿಂದವಃ ದೃಶ್ಯಂತೆ ದ ಡ್ಯೂ ಡ್ರಾಪ್ಸ್ ಆನ್ ದ ಬ್ಲೇಡ್ಸ್ ಆಫ್ ಗ್ರಾಸ್ ಸೊ ಅತ್ಯಂತಂ ಲಘು ಲಘು ಬಿಂದವಃ ಏವಂ ಸಾ ಗಂಗಾ ನದಿ ಕೀದೃಶಿ ಗಂಗಾ ಪೂರ್ವಂ ಸಾ ಸರ್ವಂ ಉಕ್ತವಾನ್ ಏಕೋದಕ ನಭೋ ಮಾರ್ಗ ಯಥಾ ಯಯಾ ಸಂಪೂರ್ಣ ಆಕಾಶಃ ಏಕೋದಕಃ ಆಸೀತ್ ಸಾ ನದಿ ಅಧುನಾ ತುಷಾರ ಕಣಿಕೋಪಮಾಂ ದಧೌ ತುಷಾರಸ್ಯ ಕಣಿಕ ಹಿಮಸ್ಯ ಏಕ ಲಘು ಬಿಂದುಃ ತಸ್ಯ ಸಾದೃಶ್ಯಂ ಸಾ ಪ್ರಾಪ್ತವತಿ ದೂರ್ವಾ ಶಿಖಾ ಏವ ಅತ್ಯಂತಂ ಇಟ್ಸ್ ವೆರಿ ಥಿನ್ ಅಂಡ್ ಸ್ಲೆಂಡರ್ ತತ್ರ ಅಗ್ರಭಾಗೆ ಕಣಿಕಾ ಯದಿ ಭವತಿ ಬೃಹತ್ ಬಿಂದುಃ ನ ಭವತಿ ಇಟ್ ಕೆನಾಟ್ ಬಿ ಎ ಬಿಗ್ ಡ್ರಾಪ್ ವಿಚ್ ಸ್ಟಿಕ್ಸ್ ಆನ್ ಟು ಅ ದೂರ್ವಾ ದೂರ್ವಾ ಇಟ್ ಸೆಲ್ಫ್ ಇಸ್ ವೆರಿ ಸ್ಲೆಂಡರ್ ಸೊ ದ ಟಿಪ್ ಆಫ್ ದ ದೂರ್ವಾ ಇಟ್ಸ್ ಅ ವೆರಿ 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 ಸ್ಮಾಲ್ ಡ್ರಾಪ್ ಸೊ ತಾದೃಶಿ ಆಸೀತ್ ಗಂಗಾ ದೂರ್ವಾ ಶಿಖಾಯಾಂ ಲಗ್ನಾಯಾಹ ತುಷಾರ ಕಣಿಕಾಯಾಹ ಉಪಮಾಂ ದಧೌ ಯಥಾ ದೂರ್ವಾ ಶಿಖಾ ದೂರ್ವಾಯಾಹ ಅಗ್ರಭಾಗೆ ಸಂಸಕ್ತಃ ಹಿಮಬಿಂದುಃ ಭವತಿ ತತ್ಸದೃಶೀ ಜಾತ ಕಾ ಅಮರಾಪಗ ದೇವನದಿ ಗಂಗಾ ಕಿಮರ್ಥಂ ಶಂಭೋಃ ಕಪರ್ದಾತ್ ಅಲಬ್ಧ ನಿರ್ಗಮ ಶಿವಸ್ಯ ಜಟಾಜೂಟಾತ್ ಬಹಿರಾಗಂತುಂ ಮಾರ್ಗಮೇವ ನ ಪ್ರಾಪ್ತವತಿ ಇತ್ಯರ್ಥಃ ಸೋ ಶಂಭೋಃ ಕಪರ್ದಾತ್ ಅಲಬ್ಧ ನಿರ್ಗಮ ಅಮರಾಪಗ ದೂರ್ವಾ ಶಿಖಾಲಗ್ನ ತುಷಾರ ಕಣಿಕೋಪಮಾಂ ದಧೌ ಕಿಂ ತಾತ್ಪರ್ಯಂ ಪರಮೇಶ್ವರಸ್ಯ ಜಟಾಜೂಟಾತ್ ಬಹಿರ್ಗಮನ ಮಾರ್ಗಂ ಅಪ್ರಾಪ್ಯ ಸಾ ದೇವನದಿ ಗಂಗಾ ದೂರ್ವಾಗ್ರೇ ಸಂಸಕ್ತಸ್ಯ अल्पस्य हिमबिन्दोः सादृश्यं प्राप्तवती. सो शी अटेन्ड रिसेम्ब्लेंस टू अ स्मॉल ड्रॉपलेट ड्यू ड्रॉप विच इज स्टिकिंग टू द टिप ऑफ अ दूर्वा ग्रास. सो नॉट फाइंडिंग अ वे आउट फ्रॉम द मैटेड लॉक्स ऑफ शिवा, सो गंगा अटेन्ड द रिसेम्ब्लेंस टू अ ड्यू ड्रॉप. So she was as small and as insignificant as that. So alabdha nirgama shambho kaparda damarapaga dadhau durva shikha lagna tushara kanikopamam. So the contrast is very evident, especially if we look at the description of the mighty river flowing through the skies. Okay, so tatsarvam varnayitva idanim सा एव गंगा अवलेप भराक्रांता गर्वस्य कारणेन कीदृशी गंगा कीदृशं कीदृशीं व्यवस्थां अवस्थां प्राप्तवती इति वर्णयति. सो अलब्ध निर्गम न लब्धः अलब्धः अलब्धः निर्गमः यया सा अलब्ध निर्गमा शंभोः शंभुः शंभुरीशः पशुपति शिवशूली महेश्वरः इत्यमरः उकारान्तः पुल्लिङ्गः षष्ठी एकवचनम् कपर्दात् कपर्दः अकारान्तः पुल्लिङ्गः पञ्चमी एकवचनम् कपर्दोस्य जटाजूटः पिनाको जगवं धनुः इति शिवस्य पर्यायपदानि उक्त्वा अस्य शिवस्य जटाजूटः कपर्दः अत एव शिवस्य कपर्दी इत्यपि नाम अस्ति. उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभरत् इति कपर्दः. अमरापगा अमराणाम् आपगा आपगा नदी आपगा तत्रापि पूर्वमपि दृष्टा आपगामापगामिव इति गङ्गानद्याः प्रथमश्लोकः विषये सम्पूरमायणे प्रथमश्लोकः. तो स्रोतस्वती द्वीपवती स्रवंती निम्नगा आपगा इति नद्याः पर्यायपदेषु पठ्यते अमरकोशे. दधौ दुधान्य धारण पोषणयोः इति धातुः तस्य लिट्लकारे प्रथमपुरुषे एकवचनम् दधौ दधतुः दधुः. दूर्वा शिखा लग्न तुषार कणिकोपमाम् दूर्वायाः शिखा दूर्वा शिखा दूर्वा शिखायां लग्ना दूर्वा शिखा लग्ना का दूर्वा शिखा लग्ना तुषारस्य कणिका तुषार कणिका. दूर्वा शिखा लग्ना चातौ तुषार कणिका च कर्मधारयः. दूर्वा शिखा लग्न तुषार कणिकायाः उपमा उपमा सादृश्यम् इत्यर्थः. दूर्वाशिखालग्न तुषारकणिकोपमा ताम् उपमालङ्कारः स्पष्टम् उपमा इत्युच्यते. अलब्धनिर्गमा शम्भोः कपर्दादमरापदा दधौ दूर्वाशिखालग्न तुषारकणिकोपमाम् अग्रिमश्लोकः.
अदृष्ट्वा ताम् नदीम् तत्र
तुष्टावपरमेश्वरम् भगीरथो विधेः क्रौर्यात्
भगीरथो विधेः क्रौर्यात्
परिक्षीणमनोरथः.
अदृष्ट्वा ताम् नदीम् तत्र तुष्टाव परमेश्वरम् भगीरथः विधेः क्रौर्यात् परीक्षीण मनोरथः.
सम्यक्. अदृष्ट्वा ताम नदीम तत्र तुष्टाव परमेश्वरम भगीरथः विधेह क्रौर्यात परीक्षीण मनोरथः। गंगा गर्विता तस्याः गर्वस्य नियंत्रणं परमेश्वरेण कृतम्। किन्तु भगीरथस्य कागतिः तुष्टाव स्तु धातुः लिट्लकारः स्तुतवान् इत्यर्थः। कं तुष्टाव परमेश्वरं महादेवं शंभुं तुष्टाव। कः भगीरथः सो भगीरथः परमेश्वरं तुष्टाव। कथं भूतः परीक्षीण मनोरथः तस्य आशा अत्यन्तं परीक्षीण। इदानीमेव बहुभ्यः संवत्सरेभ्यः सः तपः चरन् अस्ति। आदौ गङ्गायाः गङ्गामुद्दिश्य तपश्चचार ततः परमेश्वरमुद्दिश्य। इदानीं गङ्गा परमेश्वरस्य जटायाम् आगता किन्तु पुनः तत्रापि न दृश्यते। एवं पुनः पुनः विघ्नैः निराशः भगीरथः। कस्मात् कारणात् परीक्षीण मनोरथः विधेः क्रौर्यात् इति तस्य दैवं बहुधा प्रयत्नेनापि कार्यं साधयितुं न शक्यते इति विधेः विधिः दैवं तस्य क्रौर्यात् प्रातिकूल्यात् ड्यू टु अवर्स फेट। सो विधेः क्रौर्यात् परीक्षीण मनोरथः भगीरथः परमेश्वरं तुष्टाव। किं कृत्वा अदृष्ट्वा अनवलोक्य काम अदृष्ट्वा ताम नदीम मंदाकिनीम कुत्र अदृष्ट्वा तत्र परमेश्वरस्य जटाजूटे। सो परमेश्वरस्य जटां प्रति आगत्य भूमिं प्रति आगच्छति गंगा इति निरीक्षते भगीरथः। किन्तु जटाजूटं प्रविष्टा गंगा तत्रैव अंतर्हिता पुनः बहिर्नायाप। सो अधुना दैवप्रातिकूल्यात् खिन्नः भगीरथः परमेश्वरं प्रार्थयामास। अन्वयः भगीरथः ताम नदीं तत्र अदृष्ट्वा विधेः क्रौर्यात् परीक्षीण मनोरथः परमेश्वरं तुष्टाव। महादेवस्य जटाजाले संलग्नां गंगां बहिः अप्रसृतां वीक्ष्य निराशस्सन् पुनरपि परमेश्वरमुद्दिश्य तपश्चचार भगीरथः। सो नॉट सीइंग दैट रिवर सो आफ्टर शी डिसेंडेड ऑन टू शिवास लॉक सो नॉट सीइंग हर देयर परीक्षीण मनोरथः विथ हिज डिजायर फेडिंग विधेः क्रौर्यात् ड्यू टू द क्रुएल्टी ऑफ फेट। सो इवन भगीरथ इज रीचिंग एन एंड ऑफ हिज पर्सिवरेंस। सो परमेश्वरं तुष्टाव। सो पुनः अपि सो ही अगेन ही स्टार्टेड परफॉर्मिंग पेनेंस और प्रेजिंग द लॉर्ड शिवा टू रिलीज गंगा। तुष्टाव स्तुन्य स्तुतौ धातुः लिट्लकारे प्रथम पुरुषे एकवचन रूपम्। तुष्टाव तुष्टुवतुः तुष्टुवुः इति परीक्षीण मनोरथः परीक्षीणः मनोरथः यस्य सः परीक्षीण मनोरथः। अदृष्ट्वा ताम नदीं तत्र तुष्टाव परमेश्वरं भगीरथो विधेः क्रौर्यात् परीक्षीण मनोरथः। अग्रिम श्लोकः जानकी गंगा सप्ता कृतिर्जाता
गंगा सप्ता कृतिर्जाता गंगा सप्ता कृतिर्जाता
न्यपतद्धरमूर्धनि
न्यपतद्धरमूर्धनि न्यपतद्धरमूर्धनि
तेन स्तुत्या प्रसन्नेन
तेन स्तुत्या प्रसन्नेन तेन स्तुत्या प्रसन्नेन
क्षिप्ता बिन्दुसरस्यपि
क्षिप्ता बिन्दुसरस्यपि क्षिप्ता बिन्दुसरस्यपि। गंगा सप्ता कृतिः जाता न्यपतत् हरमूर्धनि तेन न्यपतत् हरम् धरमूर्धनि तेन स्तुत्या प्रसन्नेन क्षिप्ता बिन्दुसरसी अपि धरमूर्धनि तेन स्तुत्या प्रसन्नेन क्षिप्ता बिन्दुसरसी अपि सीतारं नमस्ते
सम्यक् सुगङ्गा सप्त आकृतिः सप्ताकृतिः जाता न्यपतत् धरमूर्धनि तेन स्तुत्या प्रसन्नेन क्षिप्ता बिन्दुसरसि अपि यद्यपि तत्र न्यपतत् हरमूर्धनि इत्यपि छेदः सम्भवति सो इट् इस् पासिबल् अण्ड् एक्चुलि इट् इस् मोर् इन्स्टिङ्क्टिव् टु स्प्लिट् इट् एस् न्यपतत् हरमूर्धनि किन्तु अर्थं यदा पश्यामः तदा हरमूर्धनि इति न सङ्गच्छते अत एव धरमूर्धनि इति छेदः क्रियते न्यपतत् पपात इदानीं तु शिवस्य मस्तके एव अस्ति सो ततः पतिता कुत्र पतिता धरमूर्धनि धरः नाम पर्वतः पर्वतस्य मस्तके नाम हिमालयस्य शिखरे सो हरमूर्धनि इत्यर्थः अस्मिन् प्रसङ्गे न सङ्गच्छते सो हि सा हरमूर्धनि एव अस्ति शी इस् आल्रेडी आन् द हेड् आफ् शिव सो ततः पपात कुत्र पपात धरमूर्धनि धरः पर्वतः तस्य मूर्धनि मस्तके हिमालयस्य शिखरे पपात पुनः कुत्र न्यपतत् बिन्दुसरसि अपि बिन्दुसरः बिन्दुसरोवरं नामकं क्षेत्रं विद्यते यत्र भगीरथः तपः कुर्वन् आसीत् तस्य क्षेत्रस्य बिन्दुसरः इति नाम सो तत्र अपि न्यपतत् वस्तुतः हिमालयशिखरे तत्र न्यपतत् इत्यर्थः का न्यपतत् गङ्गा मन्दाकिनी कीदृशी गङ्गा क्षिप्ता सो प्रेरिता थ्रोन् आफ् बै शिव केन क्षिप्ता तेन परमेश्वरेण कीदृशेन परमेश्वरेण प्रसन्नेन तुष्टेन कया प्रसन्नेन स्तुत्या सो भगीरथस्य प्रार्थनया तुष्टः परमेश्वरः गङ्गां क्षिप्तवान् एवं क्षिप्ता सा गङ्गा सप्तधा विभक्ता सो कीदृशी गङ्गा सप्ताकृतिः जाता सप्तसु धारासु विभक्ता हर धरमूर्धनि बिन्दुसरसि अपि न्यपतत् स्वन्वयः तेन स्तुत्या प्रसन्नेन सोरि स्तुत्या प्रसन्नेन तेन क्षिप्ता सो तेन शुड् कम् हियर् सो स्तुत्या प्रसन्नेन तेन क्षिप्ता गङ्गा सप्ताकृतिर्जाता धरमूर्धनि बिन्दुसरसि अपि न्यपतत् तत्र भगीरथस्य प्रार्थनया तुष्टः परमेश्वरः गङ्गां भूमौ क्षिप्तवान् सप्तसु धारासु विभक्ता गङ्गा हिमालयशिखरे पपात तस्याः बिन्दवः भगीरथस्य तपः क्षेत्रे अपि पतिताः अत एव तस्य बिन्दुसरः इति नाम बिन्दुभिः निर्मितं सरः सो यत्र भगीरथः तपः कृतवान् तत्र गङ्गायाः बिन्दवः पतिताः तैः बिन्दुभिः किञ्चित् सरोवरं निर्मितं तदेव बिन्दुसरः अथवा बिन्दुसरोवरम् इति उच्यते सो बिन्दुसरोवरनामकं पुण्यतीर्थं बभूव सो हि रिलीस्ड् गङ्गा परमेश्वर रिलीस्ड् गङ्गा इन् टु सेवन् स्ट्रीम्स् बिकास् ऐ मीन् द हिमालय और् द अर्थ् मे नाट् बि एबल् टु टालरेट् द एण्टैर् फोर्स् आफ् द रिवर् फालिङ्ग् इन् वन् सो इट् वास् स्प्लिट् इन् टु सेवन् and along with that he also created a pond or a lake called Bindusaras filled with droplets of the river so ganga saptakritih jata nyapatad dharamurdhani tena tutya prasannena kshitta bindusarasyapi so tat saptakritih sapta akritayah yasyah sa saptakritih धरमूर्धनि धरस्य मूर्धा धरमूर्धा तस्मिन् धरमूर्धन् इति नकारान्तः पुल्लिङ्गः सप्तमी एकवचनम् महीध्रे शिखरि क्ष्माभृत् अहार्य धर पर्वताः इत्यमरः पर्वतस्य पर्यायः धर शब्दः धरति इति धरः सो तस्य धरस्य मूर्धनि स्तुत्या स्तुतिः इकारान्त स्त्रीलिङ्गः तस्य तृतीया विभक्तौ एकवचनम् स्तुन्यस्तुतौ इति धातोः क्सिन् प्रत्ययान्तम् तव स्तोत्रम् स्तुतिर्नुतिः इति अमरः गङ्गा सप्ता स्तुतिर्जाता न्यपतद्धरमूर्धनि तेन स्तुत्या प्रसन्नेन क्षिप्ता बिन्दुसरस्यपि एवम् गङ्गायाः सप्तधाराः जाताः तासाम् विषये अग्रे उच्यते वेङ्कटेश्वरम् महोदय
तिस्रः प्राचेततीं दिशम् अन्या पितृक्रियोद्युक्त
भगीरथ पथानुगा
तासु प्राचीन गताः तिस्रः प्राचेतसीं दिशम् अन्या पितृः क्रियोद्युक्त भगीरथ पतानुका
तासु प्राचीं गताः तिस्रः प्राचेतसीं दिशम् अन्या पितृ क्रिया उद्युक्त भगीरथ पथ अनुगा गताः प्रावहन् काः तिस्रः त्री आफ् देम् सो नामानि अत्र न दीयन्ते मूलरामायणे सन्ति राधिनी पावनी नलिनी इति तिस्रः धाराः गङ्गायाः सप्तधाराः प्रवृत्ताः तासु तिस्रः धाराः कासु तिस्रः तासु नाम गङ्गायाः सप्तसु धारासु तिस्रः कुत्र गताः प्राचीं गताः प्राची इत्युक्ते पूर्वादिक् सो पूर्वां दिशम् उद्दिश्य प्रावहन् सो त्री आफ् दोस् स्ट्रीम्स् वेर् फ्लोयिङ्ग् टुवर्ड्स् द ईस्ट् Okay, so the three streams called Radini, Pavani and Nalini. Punaha kaha gataha tisraha. So the other three, Suchakshuhu, Sita, Sindhuhu. Iti tisraha dharaha. Prachetasim disham gataha. So prachetasi dik paschima. So paschimam disham gataha. So three of them went towards the west. Anya, so there is one more, the other one. So, Trayaha Prachim Dishangataha, Tisraha Paschimam Dishangataha, Anya Jata Abhut, Ka Jata Anya Nama Gangayaha Saptami Dhara, Kidrishi Jata Pitrakriyodyukta Bhagiratha Pathanuga, Pitrakriya Nama Pitrunam Sagaranam Tarpanam. तदर्थम् उद्युक्तः तत्कर्तुम् इच्छति तच्चिकीर्षतः भगीरथस्य पथानुगा मार्गम् अनुसरमाणा सो द सेवेन्थ् स्ट्रीम् फालोड् भगीरथः पितॄणां तर्पणार्थमेव गङ्गां महता श्रमेण भूमिम् आनीतवान् सो तम् अनुगच्छति गङ्गायाः सप्तमी धारा सो तासु तिस्रः प्राचीं गताः तिस्रः प्राचेतसीं दिशं गताः अन्या पितृक्रियोद्युक्त भगीरथ पथानुगा जाता। तो गंगायाः सप्तसु धारासु तिस्रः पूर्वां दिशं गतवत्यः, तिस्रः पश्चिमां दिशं गतवत्यः, सप्तमी धारा पितॄणां तर्पणं चिकीर्षतः भगीरथस्य मार्गं अनुसृतवती। तत्र मूलरामायणे पश्यामः चेत् स्पष्टमुच्यते, अनेन तोषितश्चाभूदत्यर्थं रघुनन्दन विश्वामित्रः रामं कथयति, एतत् स्मर्तव्यं, तत एव आरब्धवन्तः। विश्वामित्रः गङ्गायाः कथां रामलक्ष्मणौ प्रति कथयति। सो अनेन तोषितश्चाभूद् अत्यर्थं रघुनन्दन, शङ्करः भगीरथस्य तपसा तोषितः, विससर्जततो गङ्गां हरो बिन्दुसरः प्रति, तदा हरः शिवः गङ्गां बिन्दुसरः प्रति विससर्ज, सो हि रिलीज्ड् हर टुवर्ड्स बिन्दुसरः। तस्यां विसृज्यमानायां सप्तस्रोतांसि जज्ञिरे, ह्रादिनी पावनी चैव नलिनी च तथा परा, तिस्रः प्राचीं दिशं जग्मुः गङ्गा शिवजला शुभाः। सो एताः तिस्रः गङ्गाः शिवजलाः शुभाः, सो शिवस्य शिरसः एव पतिताः, अतः अत्यन्तं पावन्यः एताः नद्यः प्राचीं दिशं जग्मुः पूर्वां दिशं गतवत्यः, सुचक्षुश्चैव सीता च सिन्धुश्चैव महानदी, तिस्रस्वेता दिशं जग्मुः प्रतीचीं सुशुभोदकाः। दीस् त्री सुचक्षु सीता एण्ड् सिन्धु पश्चिमां दिशं गतवत्यः, सप्तमी चान्मगात् तासां भगीरथमथो नृपम्। सो सप्तमी तासां गङ्गानां भगीरथं नृपम् अन्मगात् तम् अनुगतवती, भगीरथोऽपि राजर्षिः दिव्यं स्यन्दनमास्थितः। सो भगीरथः दिव्यं स्यन्दनम्, स्यन्दनं रथः, सो दिव्यं रथम् आरुह्य प्रायादग्रे महातेजाः, सः अग्रे अग्रे गतवान् गङ्गातं चाप्यनुव्रजत्, गङ्गा तस्य पृष्ठतः गतवती। रामायणे बहु रम्यं वर्णनमस्ति गङ्गायाः, कथं गङ्गायाः प्रवाहः भगीरथस्य पृष्ठतः गच्छति। स्वप्राचीम् प्राची पूर्वादिक्, प्राच्यवाची प्रतीत्यस्ताः पूर्व दक्षिण पश्चिमाः, स्वप्राची द पूर्व दक्षिण पश्चिम उत्तर, दे आर् द कामन् नेम्, सो देर् आर् अदर् नेम्स् फर् दीस्, प्राची अवाची प्रतीचि, सो प्राची पूर्वादिक्, अवाची दक्षिणा, प्रतीची पश्चिमा, उत्तरादि उदीचि स्यात्, सो द उत्तर इस् काल्ड् उदीचि, सो प्राची प्रतीचि दे आर् आपोजिट्, एवम् उदीचि एण्ड् अवाचि। प्राचेतसि प्रचेतसः इयं प्राचेतसि, प्रचेताः वरुणः, प्रचेता वरुणः पाशी यादसां पतिरप्पतिः इत्यस्ति, सो वरुणस्य नाम प्रचेताः, वरुणः पश्चिमदिक्पालकः, सो अष्टानां दिशां दिक्पालकाः सन्ति, इन्द्रः पूर्वस्य, यमः दक्षिणस्य, वरुणः पश्चिमस्य, कुबेरः उत्तरस्य दिक्पालकः इति अस्ति। अतः प्राचेतसि नाम प्रचेतसः यं प्राचेतसि पश्चिमादिक् इत्यर्थः। दिशं दिक् शब्दः, दिक् दिशौ दिशः, दिश् इति शकारान्तः स्त्रीलिङ्गः, तस्य द्वितीया विभक्तौ एकवचनम्। दिशस्तु ककुभः काष्ठाः आशाश्च हरितश्च ताः इति अमरः, सो दिक् दिशं, दिश् इति शकारान्तः शब्दः अपि अस्ति, दिशा इति आकारान्तः शब्दः अपि अस्ति, सो बोत् आफ् देम् आर् देर्, शकारान्तः एवम् आकारान्तः उभयथापि प्रयोगः अस्ति। पितृक्रियोद्युक्त भगीरथ पथानुगा, पितृणां क्रिया पितृक्रिया, पितृक्रियायाम् उद्युक्तः पितृक्रियोद्युक्तः, पितृक्रियोद्युक्तः च असौ भगीरथश्च. पितृक्रियोद्युक्त भगीरथस्य पन्थाः अनुगच्छति इति अनुग. पितृक्रियोद्युक्त भगीरथपथः अनुग, भगीरथपथानुग. तासु प्राचीं गतास्तिस्रः, तिस्रः प्राचेतसीं दिशम् अन्या पितृक्रियोद्युक्त भगीरथपथानुग. कश्चन प्रश्नः अस्ति, आपगा इत्यस्य विग्रहवाक्यम् अस्ति वा इति. आपगा नदी इत्यर्थः, आपः नाम तत्र जलसमूहः, अपां समूहः आपम् इत्युच्यते. सो अप् नाम जलम्, जलस्य समूहः आपम्, आपेन जलसमूहेन गच्छति इति आपगा. सो दट् विच् फ्लोस् वित् अ मास् आफ् वाटर्, सो गच्छति. So it has a mass of water and it is moving, flowing. Atah apaga. Anya prashna hasanti va? Agrimam shlokam pashyamaha. Kepi vaktum icchanti. कामाक्षी
नमस्ते.
सैषा भागीरथी जह्नोः,
सैषा भागीरथी जह्नोः, सैषा भागीरथी जह्नोः.
तत्र क्षेत्रं समावृणोत्,
तत्र क्षेत्रं समावृणोत्, तत्र क्षेत्रं समावृणोत्.
तां सपीत्वा ततः शान्तो,
तां सपीत्वा ततः शान्तो, ताम सपीत्वा ततः शान्तो.
जहौ श्रोत्रेण वर्त्मना,
जहौ श्रोत्रेण वर्त्मना, जहौ श्रोत्रेण वर्त्मना. पदच्छेदं करोमि. सा एषा भागीरथी जह्नोः सत्र क्षेत्रं समावृणोत्, ताम सह पीत्वा ततः शान्तः, जहौ श्रोत्रेण वर्तमना.
धन्यवादः. सा एषा सैषा भागीरथी जह्नोः सत्र क्षेत्रं समावृणोत्, तां सह पीत्वा ततः शान्तः, जहौ श्रोत्रेण वर्तमना. समावृणोत् आवृतवती, सर्वतः समावृतवती. कं समावृणोत्? सत्र क्षेत्रम्. सत्रम् नाम यज्ञः, यज्ञस्य क्षेत्रम्, यागभूमिं समावृणोत्. कस्य सत्र क्षेत्रम्? जह्नोः. जह्नुः नाम महर्षिः, तस्य यागभूमिम् आवृतवती. का समावृणोत्? सैषा भागीरथी. भगीरथम् अनुगच्छति इत्यतः गङ्गायाः भागीरथी इत्यपि नाम. भगीरथस्य अपत्यं स्त्री भागीरथी. सो भगीरथम् अनुगच्छन्ति गङ्गा, मध्ये मार्गं तस्याः गमनमार्गे जह्नोः यागभूमिः आसीत्. सो तां पूर्णतः आवृतवती. सो शी सिम्प्ली फ्लू थ्रू द यागमण्डप रादर् देन् टर्न् एण्ड् गो अराउंड द यागमण्डप. शी सिम्प्ली फ्लू थ्रू. सो जहौ तदा किं कृतवान्? सः जह्नुः त्यक्तवान् काम? जहौ ताम गंगाम. कः? सः नाम जह्नुः. किं कृत्वा? पीत्वा. सः कुपितः जह्नुः सम्पूर्णां गंगानदीं पीतवान्. सो पीत्वा निपीय ततः, कदा जहौ? ततः तदनन्तरं नाम गंगायां पूर्णतः पीतायां. कथं भूतः सन्? शान्तः. भगीरथस्य स्तुत्या कोपान् मुक्तः सन् त्यक्तवान्. केन जहौ वर्त्मना वर्त्म मार्गः मार्गेण केन वर्त्मना श्रोत्रेण कर्णेन सम्पूर्णां गङ्गां पीतवान् भगीरथः अग्रे गच्छति झटिति गङ्गायाः शब्दः न श्रूयते सः पृष्ठतः पश्यति गङ्गा तु अदृश्या जाता ततः सर्वं किं जातम् इति विचार्य जह्नुमहर्षिं प्रार्थयामास तस्य प्रार्थनया तुष्टः जह्नुः पीतां गङ्गां स्वस्याः कर्णद्वारा बहिः विसृष्टवान् कैषा भागीरथी जह्नोः सत्रक्षेत्रं समावृणोत् सः तां पीत्वा ततः शान्तः श्रोत्रेण वर्त्मना जहौ भगीरथम् अनुगच्छन्ति गङ्गा मार्गे जह्नुमहर्षेः यागभूमिं जलैः आप्लावितवती क्रुद्धः जह्नुः गङ्गा समन्ततः पीतवान् ततश्च भगीरथस्य स्तुत्या प्रसन्नः तां कर्णमार्गेण बहिः त्यक्तवान् कस्यचित् प्रश्नः जह्नुः वा जह्नुः वा इति तत् संस्कृते लेखनं हकारोत्तरं नकारः ह्न तत्र उच्चारणे वैशिष्ट्यमस्ति यत्र हकारोत्तरं नकारः मकारः वा भवति तत्र आदौ नकारस्य अथवा मकारस्य उच्चारणं क्रियते ततः हकारस्य यथा वह्निः वह्निः इति प्रयोज इति उच्चारणं न क्रियते वह्निः इति क्रियते एवमेव ब्रह्मा इत्यत्र लेखनं ह म किन्तु उच्चारणं ब्रह्मा ब्राह्मणः गृह्णाति गृह्णाति इति लेखनं किन्तु उच्चारणं गृह्णाति इत्येव सम्प्रदायः तत्र व्याकरणनियमः इति कोऽपि नास्ति किन्तु साम्प्रदायिकाः उच्चारणसमये एवमेव उच्चारयन्ति So it's a unique thing, a special case. So whenever hakara is followed by an anunasika, na, na or ma, the uccharana is like that. So jahnu iti lekhanam, kintu uccharanam janhuh, janhavi itteva, natu jahnavi. तत्र रामायणे यतो भगीरथो राजा ततो गङ्गा यशस्विनी जगामसरितां श्रेष्ठा सर्वपापप्रणाशिनी सो यत्र यत्र भगीरथः गतवान् तत्र तत्र तम् अनुगत्य गङ्गा अपि गतवती कीदृशी गङ्गा सरितां श्रेष्ठा नदीनाम् अत्यन्तं वरिष्ठा सर्वपापप्रणाशिनी गङ्गा ततो हि यजमानस्य जह्नोरद्भुतकर्मणः गङ्गा सम्प्लावयामास यज्ञमाटं महात्मनः सो ततः जह्नुः यागं कुर्वन्नासीत् तस्य यज्ञमाटं गङ्गा सम्प्लावयामास तस्यावलेपनं ज्ञात्वा क्रुद्धो यज्वातु राघव अपिबच्च जलं सर्वं गङ्गायाः परमाद्भुतम् तस्याः अवलेपनं ज्ञात्वा अत्र पुनः यद्यपि अचिरात् शिवस्य जटाजूटे संलग्ना कथञ्चित् बहिरायात तथापि गङ्गायाः इतोपि गर्वः शिष्यते तद् ज्ञात्वा सः यज्वा यः यज्ञं करोति सः यज्वा सः जह्नुः अपिबच्च जलं सर्वं गङ्गायाः सर्वं जलम् अपिबत् परमाद्भुतम् अत्यन्तम् अद्भुतमेव अत एव पूर्वं जह्नोरद्भुतकर्मणः इत्येव जह्नोः विशेषणम् तादृशः एव सः ततो देवाः सगन्धर्वाः ऋषयश्च सुविस्मिताः पूजयन्ति महात्मानं जह्नुं पुरुषसप्तमम् न केवलं भगीरथः अन्येऽपि सर्वे देवाः गन्धर्वाः ऋषयश्च तं प्रार्थितवन्तः लोकहितार्थं गङ्गां त्यजतु इति. ततस्तुष्टो महातेजाः श्रोत्राभ्याम् अकृजत् पुनः. तदा सः सन्तुष्टः श्रोत्राभ्यां स्वस्य कर्णाभ्याम् असृजत् विसृष्टवान्. हि रिलीज्ड् गङ्गा. तस्माज्जह्नुसुता गङ्गा रोच्यते जाह्नवीति च. अतः एव जह्नुसुता जाह्नवी इति गङ्गा उच्यते. भागीरथी, भगीरथस्य अपत्यं स्त्री. भगीरथशब्दात् तद्धितः अण् प्रत्ययः भागीरथः इति भवति. तस्य नीप् प्रत्ययः स्त्रीप्रत्ययः भागीरथी. समावृणोत्. सम् आ वृ. सम् आ इति उपसर्गद्वयम् वृञ् वर्णे धातोः लङ्लकारे प्रथमपुरुषे एकवचनम्. जहौ ओहाक् त्यागे धातुः तस्य लिट्लकारे प्रथमपुरुषे एकवचनम् जहौ. श्रोत्रेण वर्त्मना श्रोत्रम् कर्णशब्दग्रहौ श्रोत्रम् कर्णः शब्दग्रहः श्रोत्रम् इति पर्यायपदानि. अकारान्तः नपुंसकलिङ्गः तृतीया विभक्तौ एकवचनम्. वर्त्मना वर्त्म अयनं वर्त्म मार्गाध्व पन्थानः पदवी स्तुतिः. मार्गः इत्यर्थे वर्त्मा. वर्त्मन् इति नकारान्तः पुल्लिङ्गः तृतीया विभक्तौ एकवचनम्. वर्त्मा वर्त्मानौ वर्त्मानः वर्त्मानं वर्त्मानौ वर्त्मनः वर्त्मना. सैषा भागीरथी जह्नोः सत्र क्षेत्रम् समावृणोत्. ताम् स प्रीत्वा ततः शान्तो जहौ श्रोत्रेण वत्मना. अग्रे कोऽपि वक्तुमिच्छति?
तया तटिन्या जाह्नव्या तया तटिन्या जाह्नव्या
प्रापयन् त्रिदिवं पितॄन्
प्रापयन् त्रिदिवं पितॄन् प्रापयन् त्रिदिवं पितॄन्
भगीरथः पुरं प्राप
भगीरथः पुरं प्राप भगीरथपुरं प्राप
परिपूर्णमनोरथः
परिपूर्णमनोरथः परिपूर्णमनोरथः. तया तटिन्या जाह्नव्या प्रापयन् त्रिदिवं पितॄन् भगीरथः पुरं प्राप परिपूर्णमनोरथः.
तया तटिन्या जाह्नव्या प्रापयन् त्रिदिवं पितॄन् भगीरथः पुरं प्राप परिपूर्णमनोरथः. प्राप प्राप्तवान्. कं प्राप पुरं नगरं प्राप्तवान्. भगीरथः स्वस्य नगरम् अयोध्यां प्रत्यागतः. कः भगीरथः? कीदृशः परिपूर्णमनोरथः? सफलसङ्कल्पः. तस्य आशा पितॄणां सद्गतिः साधनीया इति यः सङ्कल्पः सः सफलः. अतः परिपूर्णमनोरथः. कथं भूतः परिपूर्णमनोरथः? प्रापयन् नयन् कान् पितॄन् सगरपुत्रान् कुत्र प्रापयन्? त्रिदिवं नाम स्वर्गम्. गङ्गा गङ्गां सः यदा पातालं नयति तत्र सगरपुत्राणां यत् भस्म विद्यते तस्य उपरि गंगा नद्याः प्रवाहः यदा वहति तदा ते सर्वे सद्गतिं प्राप्तवन्तः। एवं स्वस्य पितॄन् सगरपुत्रान् स्वर्गं नयन् भगीरथः परिपूर्ण मनोरथः पुरं प्राप। सो कया पितॄन् स्वर्गं प्रापितवान्? तटिन्या नद्या। कया तटिन्या? जाह्नव्या। सुभोजः प्रतिश्लोकं तस्याः नाम सम्यक् उपयुञ्जे। यदा भगीरथस्य पृष्ठतः आगता तदा भागीरथी, यदा जह्नुना त्यक्ता तदा जाह्नवी। तया जाह्नव्या कटिन्या त्वन्मयः, तया जाह्नव्या कटिन्या पितॄन् त्रिदिवं प्रापयन् भगीरथः परिपूर्णमनोरथः पुरं प्राप। जह्नोः स्थलात् निर्गता गङ्गा जाह्नवी इति ख्याता तां नदीं पातालं नीत्वा सगरपुत्राणां सद्गतिं साधयित्वा भगीरथः सफलसङ्कल्पः सन् स्वनगरं प्रत्यगच्छत्। सो तटिनी ईकारान्त स्त्रीलिङ्गः तृतीया विभक्तौ एकवचनम्। अस्मिन् प्रसङ्गे नदीशब्दस्य बहवः शब्दाः भोजेन प्रयुक्ताः। तटिनी ह्रादिनी धुनि इत्यस्ति अमरकोशे। सो तटिनी नदी सरित् आपगा इत्यादि बहवः शब्दाः सन्ति। जाह्नव्या जह्नोः अपत्यं स्त्री, जह्नशब्दात् अण् तस्मात् नीप् इति स्त्री प्रत्ययः। प्रापयन् प्र उपसर्गः आप्ल व्याप्तौ इति धातुः, आप्ल व्याप्तौ इति धातुः। तस्य निजन्तात् शत्रुप्रत्ययः, प्राप्नोति प्रापयति। सो अन्यान् पितॄन् स्वर्गं प्रापयति। सो निजन्तात् शत्रुप्रत्ययः तकारान्तः पुल्लिङ्गः प्रथमाविभक्तौ एकवचनम्। त्रिदिवम् स्वरव्ययं स्वर्गनाक त्रिदिव त्रिदशालयाः इति अमरकोशस्य प्रथमा पङ्क्तिः। सो दट् इस् द फस्ट् सेण्टेन्स् आफ् द अमरकोश इन् आफ्टर् द पीठिका। सो स्वर् इति अव्ययं, स्वर्ग नाक त्रिदिव त्रिदशालयाः। सो त्रिदिवः अकारान्तः पुल्लिङ्गः द्वितीया विभक्तौ एकवचनम्। परिपूर्णमनोरथः, परिपूर्णः मनोरथः यस्य सः। तया तटिन्या जाह्नव्या प्रापयन् त्रिदिवं पितॄन् भगीरथः पुरं प्राप परिपूर्णमनोरथः। अत्र स्थापयामः। सो गङ्गा हरस्य जटाजूटे दधौ दूर्वाशिखालग्न तुषारकणिकोपमा, दूर्वाग्रे संसक्तस्य हिमबिन्दोः सादृश्यं प्राप्तवती। अलब्धनिर्गमा बहिरागन्तुं कमपि मार्गम् अप्राप्य ताम् अवस्थां दधौ। ततः भगीरथस्य प्रार्थनया तुष्टः परमेश्वरः तां भूमिं प्रतित्यक्तवान्। सा गङ्गा सप्ताकृतिः जाता। तासु तिस्रः पूर्वां दिशं गतवत्यः, तिस्रः पश्चिमां दिशं गतवत्यः। सप्तमी गङ्गा भगीरथम् अनुगत्य भागीरथी इति प्रसिद्धा मध्ये मार्गं जह्नुमहर्षेः यज्ञमण्डपम् आप्लाव्य तेन पीता पुनः कर्णेभ्यः कर्णाभ्यां बहिः प्रेषिता जाह्नवी इति ख्याताभूत्। सो तस्याः साहाय्येन भगीरथः पितॄणां सद्गतिं साधयित्वा सन्तुष्टः अयोध्यां प्रतिनिवर्तयामास। इत्यत्र गङ्गायाः कथा समाप्यते चम्पूरामायणे। अग्रिमवर्गे अग्रिमं भागं पश्यामः। एनी क्वश्चन्? मंगलं कुर्मः वेंकटेश्वर महोदय वेंकटेश्वर महोदय मंगलं करोति वा
करोतु लक्ष्मीं करोतु नितराम् इतरानपेक्षम् अङ्गिरिद्वयम् निगमशाखि शिखाप्रवालम् ऐरम्बमम्बुरुहडम्बरशौर्यनिघ्नम् निर्विघ्नात्रिपेदशतधारधुरन्धरन्
धन्यवादः